इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। आदौ मुख्यवार्ताः। लोकसभा निर्वाचनस्य सप्तमान्तिमचरणस्य च प्रचारः समाप्तः। जम्मूमण्डलस्य अखनूर उपमण्डलक्षेत्रे तीर्थयात्रिकान् वहत् बसयानं गभीरखात्याम् अपतत्। न्यूनातिन्यूनं 16 यात्रिकाः मृताः, 50 जनाः घातिताः च सन्ति। भारतीय ऋतुविज्ञानविभागेन सूचितं यत् दक्षिणपश्चिमवर्षर्तुः केरलस्य उपरि प्रविश्य अद्य पूर्वोत्तरभारतस्य अधिकांशभागेष् उन्नतिं याति। भारतीय प्रौद्योगिकी संस्थान मद्रास इत्यस्य नवोद्योग संस्था अग्निकुल कॉस्मोस इत्यनेन एकखण्ड त्रिआयामी 3D इति मुद्रित प्रचालकेन सह विश्वस्य प्रथमं आग्नेयास्त्र प्रक्षेपणं कृतम्। अपि च मुष्टामुष्टि क्रीडायां भारतस्य सचिन सिवाचः थाईलैंड देशस्य बैंकॉक नगरे विश्व पात्रता प्रतियोगितायाः प्रागुपान्त्य चक्रीय क्रीडायां प्रवेशं प्राप्तवान्। अथ वार्ताः विस्तरेण। लोकसभा निर्वाचनस्य सप्तमान्तिमचरणस्य च प्रचारः अद्य सायंकाले समाप्तः। सप्तराज्येष् विस्तृतानि 57 संसदीय क्षेत्राणि, एकं केन्द्रशासित क्षेत्रञ्च अस्मिन् चरणीय मतदाने संलग्नानि सन्ति। मतदानञ्च जूनमासस्य प्रथमदिनांके भविष्यति। एतेषु क्षेत्रेष् सन्ति उत्तरप्रदेश पंजाबाभ्यां 13, पश्चिमबंगतः 9, विहारतः 8, ओडिशातः 6, हिमाचलप्रदेशतः 4, झारखण्डतः 3, चण्डीगढतः केन्द्रशासितक्षेत्रतश्च एकैकम् आसन्दम् इति। ओडिशा राज्यस्य 42 विधानसभासनेभ्यः अपि अस्मिन् चरणे युगपदेव निर्वाचनं भविष्यति। 57 लोकसभासनेभ्यः आहत्य 4,900 अभ्यर्थिनः सन्ति। विभिन्न राजनैतिकदलानां शीर्षनेतारः मतदातृन् आकर्षयितुं कोणात् कोणतरं क्षेत्रमपि अत्यजन्तः सन्ति। प्रधानमन्त्री, भाजपेति दलस्य वरिष्ठनेता च श्रीनरेन्द्रमोदी पंजाबस्य होशियारपुरनगरे निर्वाचनसभां सम्बोधितवान्। सः कांग्रेसदलस्य इंडी गठबन्धनस्य च उपरि तुष्टीकरणस्य राजनीतेः आरोपं कृतवान्। श्रीमोदी अवदत् यत् तुष्टीकरणस्य कृते कांग्रेसपक्षं राममन्दिरनिर्माणस्य निरन्तरं विरोधं करोति, नागरिकता संशोधन विधेयस्य विरोधमपि करोति। प्रधानमन्त्रिणा उक्तं यत् तस्य सर्वकारः दलितानां अन्य वंचितवर्गस्य च आरक्षणं हित्वा केवलं मुस्लिमधर्मावलम्बिभ्य एव दातुं न यतते। ओडिशाराज्ये वरिष्ठ कांग्रेसनेता राहुल गांधी अद्य प्रातः बालासोर लोकसभाक्षेत्रस्य अन्तर्गत सीमुलिया नगरे विशाल जनसभां सम्बोधितवान्, यत्र सः आरोपितवान् यत् ओडिशा प्रदेशे सत्ताधारिणः बीजद दलस्य भाजपायाश्च परस्पर राजनैतिक लाभानां कृते गुप्त सहमति अस्तीति। प्रधानमन्त्री नरेन्द्रमोदी अद्यारभ्य तमिलनाडुप्रदेशस्य कन्याकुमार्यां त्रिदिवसीय यात्रायां भविष्यति। कन्याकुमार्यां श्रीमोदी शिलास्मारकं गत्वा पुरा यत्र स्वामी विवेकानन्दः ध्यानं कृतवान् आसीत् तत्रैव ध्यानमण्डपे ध्यानं करिष्यति। अस्याः शिलायाः स्वामी विवेकानन्दस्य जीवने महति प्रभावः आसीत्। यथा गौतमबुद्धस्य जीवने सारनाथस्य विशेषस्थानं वर्तते, तथैव स्वामी विवेकानन्दस्य जीवने अपि अस्याः शिलायाः स्थानं वर्तते इति जनाः मन्यन्ते। स्वामी विवेकानन्दः देशं परिभ्रमित्वा 3 दिनानि यावत् ध्यानं कृत्वा अत्रैव विकसितस्य भारतस्य दर्शनं प्राप्तवान् आसीत्। एतस्मिन्नेव स्थाने ध्यात्वा स्वामी विवेकानन्दस्य विकसितभारतस्य दृष्टिः जीवन्तं कर्तुं मोदिनः प्रतिबद्धतां दर्शयति। एतत् भारतस्य दक्षिणतमम् अग्रभागमस्ति। ततः परं भारतस्य सागरीय पूर्वपश्चिम तटरेखाः अत्रैव मिलन्ति। अत्र हिन्दमहासागरस्य वंगखातेः अर्बुदसागरस्य मिलनस्थानम् अस्ति। प्रधानमन्त्री नैर्वाचनिक प्रचारानन्तरम् आध्यात्मिकयात्रायां गमनाय प्रसिद्धः अस्ति। तदनुरूपं सः अद्य कन्याकुमारीं प्राप्स्यति। सः एकोनविंशत्यधिक द्विसहस्रतमे वर्षे केदारनाथं गतवान् आसीत्। चतुर्दशाधिक द्विसहस्रतमे वर्षे च सः शिवाजीवर्यस्य प्रतापगढ़ं गतवान्। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर इति चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। भारतस्य ऋतुविज्ञान विभागेन सूचितं यत् दक्षिण पश्चिम वर्षर्तुः केरलस्य उपरि प्रविश्य अद्य पूर्वोत्तर भारतस्य अधिकांश भागेषु उन्नतिं याति। जून मासस्य प्रथम दिनांकतः इति सामान्य प्रारम्भ दिनात् दिवसैक पूर्वं वर्षर्तुः आयाति। आकाशवाणी इत्यनेन सह वार्तालापं कुर्वन् भारतीय ऋतुविज्ञान विभागस्य महानिदेशकः मृत्युंजय महापात्रः अवदत् यत् आगामिषु द्वित्रिषु दिवसेषु कर्नाटक तमिलनाडु पुदुच्चेरी इत्यादिषु दक्षिण भारतस्य अवशिष्टेषु भागेषु अपि वर्षर्तोः आरम्भाय अनुकूलाः परिस्थितयः सन्तीति। उपहिमालयेन पश्चिमबंगे सिक्किमेन सह सहितं पूर्वोत्तर भारतस्य सर्वेषु भागेषु अपि वर्षर्तुः आगमिष्यतीति। सः अवदत् तापतरंग विषये भारतीय ऋतुविज्ञान विभागेन सूचितं यत् अद्यारभ्य तापतरंगस्य परिस्थितेः तीव्रता न्यूनी भवितुं शक्यते। डॉ मोहपात्रः अवदत् यत् दक्षिण पश्चिम वायुः समीपं गच्छति इति कारणतः वायव्य भारतस्य उपरि वर्षा वज्रवृष्टिः च सम्भवति इति। एकस्मिन् उल्लेखनीय सिद्धौ भारतीय प्रौद्योगिकी संस्थान मद्रास इत्यस्य नवोद्योग संस्था अग्निकुल कॉस्मोस इत्यनेन एकखण्ड त्रियायामी 3D इति मुद्रित प्रचालकेन सह विश्वस्य प्रथमं आग्नेयास्त्र प्रक्षेपणं कृतमस्ति। आग्नेयास्त्र अग्निबाण SORTED भारतस्य प्रथमः अर्धक्रायोजेनिक इति प्रचालक संचालितः आग्नेयास्त्र प्रक्षेपणः अपि अस्ति, यस्य पूर्णतया प्रारूपः स्वदेशीय रूपेण निर्मितं च आसीत्। आन्ध्रप्रदेशस्य श्रीहरिकोटायां अग्निकुलेन स्थापितेन भारतस्य प्रथमेन निज विकसितेन धनुष इति प्रक्षेपणस्थलात् प्रातः सार्धसप्तवादने प्रक्षेपणं कृतम्। अद्य परीक्षण उड्डयनस्य उद्देश्यम् आन्तरिक स्वोत्पादित प्रौद्योगिकीनां प्रदर्शनं महत्वपूर्ण उड्डयन विवरणानां संग्रहणम् अग्निकुलस्य कक्षीय प्रक्षेपण वाहनस्य अग्निबाण इत्यस्य कृते प्रणालीनाम् इष्टतमं कार्यं सुनिश्चितं कर्तुम् अस्ति। अग्निबाण SORTED इत्यस्य सफल प्रक्षेपणार्थम् अग्निकुल कॉस्मोस इत्यस्य अभिनन्दनं कुर्वन् इसरो इत्यस्य अध्यक्षः एस सोमनाथः उक्तवान् यत् अग्निमाण इति द्विचरणीय प्रक्षेपास्त्रम् अस्ति, यस्य क्षमता 300 किलोग्राम इति भारपर्यन्तं 700 किलोमीटर इति प्रक्षेपास्त्र प्रचालकं द्रव ऑक्सीजन केरोसिन इति इन्धनेन चालितं च भवति। प्रधानमन्त्रिणा नरेन्द्रमोदिना सामाजिक प्रसार तन्त्रजाले उक्तं यत् अग्निबाण प्रक्षेपास्त्रस्य सफल प्रक्षेपणं भारतस्य अन्तरिक्षक्षेत्रस्य कृते महत्वपूर्ण अवसर अस्ति इति, अपि च अस्माकं युवशक्तेः विलक्षण चातुर्यस्य प्रमाणम् अस्त्यपि। श्रीमोदी सर्वेभ्यः शुभकामनाम् अयच्छत्। जम्मूकश्मीरे अद्य अपराह्ने जम्मूमण्डलस्य अखनूर उपमण्डलस्य तुंगी मोड़ क्षेत्रे तीर्थयात्रिकान् वहत् बसयानं गभीरखात्यां पतित्वा न्यूनातिन्यूनं 16 मृताः 50 जनाः घातिताः च सन्ति। आकाशवाण्याः जम्मू संवाददाता ज्ञापयति यत् व्रणितानां उपमण्डलीय चिकित्सालये अखनूर इत्यत्र स्थानान्तरणं कृतमस्ति। यतः गभीररूपेण घातितानां जम्मू नगरस्य शासकीय चिकित्सा महाविद्यालयं प्रति प्रेषणं क्रियते अपि। मृतानां व्रणितानां च परिचयः निश्चीयते। जम्मूतः रियासी मण्डलस्य शिवखोरी गुहां प्रति गच्छत् एतद् बसयानम् अधिकतया उत्तरप्रदेशीयान् तीर्थयात्रिकान् वहति स्म। अधिकविवरणं च प्रतीक्षते। अन्ते क्रीडावार्तायां मुष्टामुष्टि क्रीडायां भारतस्य सचिन सिवाचः थाईलैण्डदेशस्य बैंकॉक नगरे विश्वपात्रता प्रतियोगितायाः प्रागुपान्त्यचक्रीय क्रीडायां प्रवेशं प्राप्तवान्। सः तुर्की देशस्य बटुहान सिफ्टी इत्यस्मै सर्वसम्मत्या 57 किलोग्राममिते वर्गे 5-0 इत्यंकान्तरेण पराजितवान्। सह आगामी पेरिस ओलंपिक